मङ्गलीर्यं वधूलिमां समेत पश्यत् सौभाग्यस्मै दत्त्वाया धास्तं विपरेतन् गृह्णामि ते सौभगत्वाय हस्तं मया पद्याचरादष्टियथ सः